Om Namah Shivaya. Dear listeners of Shaivam.org, the next program is Spiritual Music. In this, you are about to listen Veda Mantram. The title is Taittiriya Upanishad, Bhriguballi, presented by Vedamantram.com team. Om Namah Shivaya.
सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनापतितमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वैवारुणिः वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तस्मा एतत्प्रोवाच अन्नं प्राणं चक्षुश्रोत्रं मनोवाच विदि तगुंहोवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्र यञ्चभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोधप्यता सतपस्तत्वा अन्नं ब्रह्मेति व्यजानात् अन्नाध्येव खल्विमानिभूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपो तप्यता सतपस्तत्वा ॐ प्राणो ब्रह्मेति यजानात् प्राणाच्चैव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रजन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपो तप्यता सतपस्तत्वा मनो ब्रह्मेति यजानात् मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनः प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपो तप्यता सतपस्तत्वा विज्ञानं ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानम् प्रयञ्चभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार पदीः भगवो ब्रह्मेति पगुंहो वाचा तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स तपो तप्यता स तपस्तत्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दम् प्रयञ्चभिसंविशन्तीति सैषा भार्गवीवारुणी विद्या परमेव्योमम् प्रतिष्ठिता य एवम् वेद प्रतितिष्ठति अन्नवान्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या अन्नन्ननिर्जात् तद्व्रतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणः प्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठति अन्नवान्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या अन्नन्न परिदक्षीत तद्व्रतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सु ज्योतिः प्रतिष्ठितम् ज्योतिष्यापः प्रतिष्ठिताः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या अन्नम् बहुभूवीत तद्व्रतम् पृथिवी वा अन्नम् आकाशोऽन्नदः पृथिव्यामाकाशः प्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या कञ्चन वसतौ प्रत्याचक्षीता तत्व्रतम् तस्माज्जया कया च विधया बह्वन्नम् प्राप्नुयात् पराध्यस्मा अन्नमित्याचक्षसे एतद्वै मुखतोऽन्नगुमुराध्यम् मुखतोऽस्मा अन्नगुमुराध्यते एतद्वै मध्यतोऽन्नगुमुराध्यम् मध्यतोऽस्मा अन्नगुमुराध्यते एतद्वा अन्ततोऽन्नगुमुराध्यम् अन्ततोऽस्मान्नगुमुराध्यते य एवम् वेदा क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पादयौ इति मानुषी समाज्ञा अथ दैवी तृप्तिरिति विष्टौ बलमिति विद्युति यशरिति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इति उपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीता प्रतिष्ठावान् भवति तन्मह इत्युपासीता महान् भवति तन्मन इत्युपासीता मानवान् भवति तन्नम इत्युपासीता नम्यन्ते स्मै कामाः तद्ब्रह्मेत्युपासीता ब्रह्मवान् भवति तद्ब्रह्मणः परिमर इत्युपासीता परियेण म्रियन्ते द्विषन्तः स पत्राः परिये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवम् पितुः अस्माल्लोकात् प्रेत्या एतमल्लमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नीकामरूप्यनुसञ्चरन् एतत्सावगायम् नास्ते अहमस्ति प्रथमजारदास्य पूर्वम् देवेभ्यो अमृतस्य न वायि यो मा ददाति स हि देव मा अहमन्नमन्नमदन्तमामि अहम् विष्टम्भुपरमभ्य भवान् सुवर्णज्योतिः य एवम् वेद इत्युपदिशतु सहनाभवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनापतितमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्ति